प्रद्युम्नोरौक्मिणेयः सकलु तव कला शम्बरेणाहृतस्तम् कत्वा रत्या सहाब्दो निजपुरमहरद्भुक्मिकन्याम् च धन्याम् तत्पुत्रोतानिरुद्धो गुणनिधिरमहद्रोह च नाम् रुक्मिपौत्रीम् तत्रोद्वाहे गतस्त्वम् न्यवलि मुसलिना रुक्म्यपि द्यूत वैरात् बाणस्य सा बलिसुतस्य सहस्रबाहोद्माहेश्वरस्य महित दुहिता किलोषः त्वत्पौत्रमेनमनिरुद्धमदृष्टपूर्वम् स्वप्नेऽनुभूय भगवन् निरहतुरः भू योगिन्यतीव कुशला खलु चित्रलेखा तस्या सखी विलिखति तरुणानशेषान् तत्र निरुद्धमुषया विदितौ निशायाम् अहनेष्टयोग बलतो भवतो हि केतात् कन्यापुरे दयितया सुकमारमन्तम् चैनम् कथञ्चन बबन्धुषि सर्वबन्धौ श्रीनारदोक्त तदुदन्त दुरन्तरोषैः त्वम् तस्य शोणितपुरम् यदुभिर्न्यरुधाग कुरीपालशैल प्रिय दुहितृनाथोऽस्य भगवान् समम् भूतौ राते यदुबलमशङ्कम् निरुरुधे महाप्राणो बाणो झटिति युयुधानेन युयुधे गुह प्रद्युम्नेन त्वमपि पुरहन्त्र जगदिशे निरुद्धाशे शास्त्रे मुमुहुषितवास्त्रेण गिरिशे मृता भूता वीतः प्रमत कुलवीराः प्रमथिताः परास्कन्दस्कन्द कुसुम शर बाणैश्च सचिवः सकुम्भाण्डो भाण्डम् नवमिव बलेनाशु बिबिदे चापानाम् पञ्चशत्या प्रसभमुपगते छिन्न चापेत बाणे यत्ते याते समेतो ज्वरपतिरशनैरज्वरिः त्वज्वरेण ज्ञानी स्तुत्वा तदत्वा तव चरितजुषा विज्वरौ सज्वरोगात् प्रायोऽन्तर्ज्ञानवन्तोऽपि च बहुतमसा रौद्रचेष्टा हि रौद्राः बाणौ नानायुधोग्रम् पुनरविपतितौ दर्पदोषादितन्व निर्लूणाशेषदोषम् सपदि बुबुदुषा शङ्करेणोपगीतः तद्वाचाशिष्टबाहुद्वितयमुभयतो निर्भयौ तत्प्रियम् तौ मुक्त्वा तद्दत्तमानो निजपुरमगमः सा निरुद्धः सहोषः मुहुस्तावच्छक्रौ वरुणमजयो नन्दहरणे यमम् बालानीतौ दवदहनपाने निलसकौ विधिम् वत्सस्ते गीशमिह बाणस्य समरे विभो विश्वोत्कर्षि तदयमवतारो जयति ते विजरुषा कृकलासवपुर्धरौ मृगनृपौ त्रिदिवालयमापयन् निज जले द्विज भक्तिमनुत्तमाम् उपदिशन् पवनेश्वर पाहि माम्।